प्रत्यग्निरुषसश्चेकितानोबोधिविप्रः पदभिः कवीनाम् पृथुपाजादेवजद्भिः समिद्धो पद्मारातमसो वह्निरावः प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिस्तो तृणान्नमस्य उक्थैः पूर्वैररतस्य सन्दृशश्च कानः सन्धूतो अद्यौ दुषसो विरोके अधा यज्ञर्मानुषेषु भिक्ष्वा अपाङ्गर्भो मित्ररतेन साधन् आहर्यतो यजतः सान्वस्थादबोधु विप्रोहव्या मतीनाम् मित्र अग्निर्भवति यत्समिद्धो मित्रोः तावरुणो जातवेदाः मित्र अध्वर्युरिशिरोदमो ओ न मित्रस्सिन्धो ओ नामुत पर्वतानाम् पातिप्रियम् रिपो अग्रम् पदम् वेः पाति जह्वश्चरणम् सूर्यस्य पातिनाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः रुभश्चक्र ईड्यम् चारुनाम विश्वानि देवो वयुनानि विद्वान् सस्य चर्म घृतवत्पदम् वेस्तदिदग्निरक्षत्यप्रयुच्छन् आयोनिमग्निर्घृतवन्तमस्थात् पृथक् प्रगाणमुषन्तमुषानः दीद्या नश्रुचरश्वः पावकः पुनः पुनर्मातरानव्यसेकः सद्यो जात ओषधेभिर्ववक्षे यदि वर्धन्ते प्रस्वो घृतेन आप इव प्रवदा शुम्भमाना उरुष्यदग्न्यः पित्रारुपस्थे उदुष्टतः समिधा जह्वो अद्योत्वर्ष्मन् दिवो अधिनाभा पृथिव्याः मित्र अग्निरेड्यो मातरिष्वादूतो वक्षद्यजथा जदेवान् उदस्तम्भेत्समिधानाकभृष्वो ओग्निर्भवन्नुत्तमारोचनानाम् यदि भृगुभ्यः परिमातरिष्वा गुहासन्दम् हव्यवाहम् समीधे इडामग्ने पुरुदम् सम् सलिङ्गो शश्वत्तमम् हवमानाय साध स्यान्नः सोनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे